ताडनं च कृतं कुमति विर्जनैः क्षन्तव्यमेव सर्वेषां चिन्तनीयं हितं च तैः गालिदानं ताडनं च कृतं कुमतिभिर्जनैः क्षन्तव्यमेव सर्वेषां
चिन्तनीयं हितं च तैः चिन्तनीयं हितं च तैः।